अव्याक्ताद्यतयेतद् व्यक्तं जातमशेषं यद्धत्ते तदद्रस्रं यत्रान्ते लयमेति आधारे खलु यस्मिन् गोलानां सहलक्ष्यै ब्रह्मन्दं प्रतितिष्ठत् चेत्तन्निस्थुरसात्वे सूर्यादिग्रहभसं यन्मूलं गणतेजः यद्ब्रह्मादिसुराणां शक्त्यै शक्तिरुताहो त्यक्त्वा तत्त्वमसाङ्ग भासयस्यरमन्ते यज्जलेन समस्ते द्वैक्ते क्षल्पिमतीनां याधानेन भवन्ति स्वात्मानन्दनिमग्नः यन्निष्ठा खलु मुक्ति यच्छन्दोऽपि तथार्थ यद्ब्रह्म प्राणवाक्यं चित्ते ध्यानकृते मे आश्रान्तं रमणाख्यं बिभ्रद्भातुमदीष्टम् आधारे दृष्टमूलम् अर्धब्जे कृतवासं शीर्षब्जाय वहाध्यत् पश्चादिन्द्रियशाक्त्यै।